त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पद आन शृण्वन्नोदिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाश रव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिजागशीः यामिषम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोच ददि भक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असंव्यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रितात् सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पति नीलग्रीवो विलोकितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे के अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्याणामुखा शिवो न सुमना भव विज्यम् धनुक्कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निशङ्गधिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तताय दृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो यगिषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। ನಮೋ ಹಿರಣ್ಯ ಭಾಗವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪದಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪದಯೇ ನಮೋ ನಮ ಸಸ್ಪಿಂಜರಾಯ ತ್ವಿಷೀಮತೇ ಪತೀನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಬಬ್ಲುಷಾಯ ವಿವ್ಯಾಧಿನೇನಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೇತಿನೇ ಪುಷ್ಟಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪದಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತಥಾ ವಿನೇಕ್ಷೇತ್ರಾಣಾಂ ಪದಯೇ ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಮಂದ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ಭಾರಿವಸ್ಕೃತಾಯ ಔಷಧೀನಾಂ ಪದಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ಯೀನಾಂ ಪದಯೇ ನಮೋ ನಮ ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪದಯೇ ನಮಃ ನಮಸ್ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪದಯೇ ನಮೋ ನಮ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇಕೇ ಸೇನಾನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷುಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪದಯೇ ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ಥಾಯೂನಾಂ ಪದಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪದಯೇ ನಮೋ ನಮ ಸೃಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪದಯೇ ನಮೋ ನಮೋ ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಜರದ್ಭ್ಯ ಪ್ರಕೃಂದಾನಾಂ ಪದಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪದಯೇ ನಮೋ ನಮ ಇಷುಮದ್ಭ್ಯೋ ತನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರದಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಿಷ್ಟದ್ಭ್ಯೋ ದಾವದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸಭಾಭ್ಯ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮಃವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಭ್ರಾತೇಭ್ಯೋ ಭ್ರಾತಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸ್ಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಕ್ಷದ್ಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ శుక్రద్భ్యో ధన్వకృద్భ్యశ్చ భో నమో నమో మృగయోభ్యశ్వనేభ్యశ్చ భో నమో నమశ్వభ్యశ్వవదేభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీదుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయతే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆచభే చాజిరాయ చ నమ శీఘ్ర్యాయ చ శీభ్యాయ చ నమ ఓర్ణ్యాయ చావస్వన్యాయ చ నమ శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమ సోభ్యాయ చ ప్రతిధర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమ ఉర్వర్యాయ చ కళ్యాయ చ నమ శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేణాయ చాశురథాయ చ నమ శూరాయ చావబిందతే చ నమో వర్మిణే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రభృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తేష్ణే చ వేచాయుధినే చ నమ స్వాయుధాయ చ సుధన్వనే చ నమ శ్రుత్యాయ చ పథ్యాయ చ నమ కాట్యాయ చ నీప్యాయ చ నమ సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమ కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమ ఈద్రియాయ చ ్యాయ చ నమో వాద్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ ఋణాయ చ నమః చంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో కరికేశేభ్యో నమస్కారాయ నమ శంభవే చ మయో భవే చ నమ శంకరాయ చ మయస్కరాయ చ నమ శివాయ చ శివతరాయ చ నమస్తేర్త్యాయ చ కోల్యాయ చ నమ పార్యాయ చ భార్యాయ చ నమ ప్రతరణాయ చోత్తరణాయ చ నమ ఆసాద్యాయ చ లాద్యాయ చ నమ షష్ట్యాయ చ భేణ్యాయ చ నమ సికత్యాయ చ ప్రవాహ్యాయ చ నమగిరణ్యాయ చ ప్రపత్యాయ చ నమకిగుం శిలాయ చ శయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాఠ్యాయ జగహ్వరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్మ్యాయ చ సోర్మ్యాయ చ నమః పర్ణ్యాయ చ వర్ణశద్యాయ చ నమో పగురమాణాయ చాభిఘ్నతే చ నమః ఆఖ్యిదతే చ ప్రఖ్యిదతే చ నమో వక్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విజిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మా భేర్మా రోమో కేషాం కించనామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాహ భేషజే శివా రుద్రస్య భేషజే తయానో మృణ జీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యథా నశ్యమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చయోశ్చ మనురాయ చే పితా తదశ్యామతవరుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షిరం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మానో గోషు మానో అశ్వేషు రీరిషః వీరాన్మానో రుద్రభామితో భవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్నహుత పూరుషగ్నే క్షయద్వీరాయ సున్నమస్మేతే అస్తు రక్షాజనో అదిచ దేవ భ్రూయదాచ నశర్మ యచ్చ వివర్హాః సువిశ్రుతం గత్త సదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృడాజరిద్రే రుద్రస్తవానో అన్యంతే అస్మన్నివపంతు సేనాగాః పరిణో రుద్రస్య హేతర్వృణక్తు పరిత్వేషస్య దుర్మతిరఘాయోః అవస్థిరా మగవద్భ్యస్తనుష్వమీష్వస్తోకాయతనయాయ మృడయా మీఢుష్టమశివతమశివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్యం వసా నమాచర పినాకం బిభ్రదాగహే విగిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుంహేతయోన్యమస్మన్నివపంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశోయే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే అస్మిన్ మహత్యర్ణవే ఏంద్రరిక్షే భవా అధి नीलग्रीवाश्रितिकण्ठा शर्वाधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिभगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलभृदा यव्युदः ये तीर्थाणि प्रजलन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिव्ये शामन्नम् पातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् विष्मो यश्च नो द्वेष्टिदम् भोजम्बे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्वृषः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महे सौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा बद्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठम् च म आधिपत्य च मे मन्युश्च मे भामश्च मे मश्च मे म्हश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्भिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे त्रिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे धाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे विष्णियाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवणीयश्च म आग्नेयध्वं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दैत्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्ठवाच्च मे पष्ठौहि च म उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता दुःश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंषच्च मे त्रयस्त्रिगुंषच्च मे चतस्रश्च मे शौच मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे षाविगुंसतिश्च मे द्वात्रिगुंषच्च मे षट्त्रिगुंषच्च मे चत्वारिगुंषच्च मे चतुश्चत्वारिगुंषच्च मे षाचत्वारिगुंषच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च शुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि शगुंसि षद्विश्वे देवासोक्तवा च पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरो नु मदन्तो ॐ शान्ति 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 ॐ तच्छञ्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उताम्रतत्त्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्मात् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिदक्रताः देवा यज्ञज्ञम् तन्वानाः अभद्रन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः समृतम् प्रशदाज्यम् पशोगस्तादश्चक्रे वायव्यान् आरण्यान् राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषसामानि जन्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जागा अजावयः यत्पुरुषं व्यदधुः कतिदाव्यकल्पयन् मुखं किमस्य कौ बाहो कावूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ओरो तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्षौद्यौ समवर्तता पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् तेहनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विददद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिष्ठरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋषाय ब्राह्मये ऋषम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मी शपत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तृणः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमेहन्मे कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणा हरः कृमीनागुम् राजा अप्येषागस्तपतिर्हरः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिकाः हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्वते ॐ शान्ति शान्ति शान्तिः ॐ समिद्युवसे वृषन्नग्ने विश्वान्यर्य इलस्पदे समिध्यसे सनो वसून्याभरा सङ्गच्छध्वम् संवदध्वम् सम्भो मनांसि जानताम् देवा भागं यथा पूर्वे सञ्जानाना उपासते समानो मन्द्रः समितिः समानि समानम् मनः सह चित्तमेषाम् समानम् मन्त्रमभिमन्त्र एव समानेन वो हविषा जुहोमि समानीव आकोतिः समाना हृदयानि वः समानमस्तु वो मनो यथा सुसहासते ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम वयम् पुत्रमदितेर्यो विधत्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजाचिद्यम् भगम् भक्षेत्याः भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणभिर्नृवन्दस्याम उतेदानीम् भगवन्दस्यामोद कृतित्व उत मध्ये अह्ना उतोदिता मघवन् सूर्यस्य वयम् देवानागम् सुमतो स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्दस्याम तन्त्वा भगः सर्व इज्जो हविभिसनो भरपुर एता भवेह समध्वरा योषतो नमन्तदधिक्रावे वसुचये पराय अर्वाचीनम् वसुविधम् भगन्नो रथमिवाश्वाजिनावहन्तो अश्वावतीर्गोमतीर्न उषासो वीरवति सदमुच्छन्तु भद्राः ऋतम् दुहारा विश्वत प्रपीडा योऽयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिन गुम् सन्तमथा भागम् चिकीर्षते अभागमग्नेतम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति
ಪ್ರತ್ಯೇನ ರಜಸಾ ವರ್ತಮಾನೋ ನಿವೇಶಯನ್ನಮೃತಂ ಮರ್ತ್ಯಂಚ ಹಿರಣ್ಯಯೇನ ಸವಿತಾ ರಥೇನ ದೇವೋ ಜಾತಿ ಭುವನ ವಿಪಶ್ಯನ್ ಅಗ್ನಿಂ ದೂತಂ ವೃಣೀಮಹೇ ಘೋತಾರಂ ವಿಶ್ವವೇದಸಂ ಅಸ್ಯ ಯಜ್ಞಸ್ಯ ಸುಕ್ರತುಂ ಯೇಷಾಮೀಶೇ ಪಶುಪತಿ ಪಶೂನಾಂ ಚತುಷ್ಪದಾ ಮುತ ಚ ದ್ವಿಪದಾ ನಿಷ್ಕ್ರೇತೋಯಂ ಯಜ್ಞೇಯಂ ಭಾಗಮೇತು ರಾಜಸ್ಪೋಷಾ ಯಜಮಾನಸ್ಯ ಸಂತೋ ಓಂ ನದಿ ದೇವತಾ ಪ್ರತ್ಯಧಿ ದೇವತಾ ಸಹಿತಾಯ ಆದಿತ್ಯಾಯ ನಮಃ ಓಂ ಆಪ್ಯಾಯ ಸ್ವಸಮೇತು ತೇ ವಿಶ್ವತಸ್ಸೋಮ ವೃಷ್ಣಿಯಂ ಭವಾವಾಜಸ್ಯ ಸಂಗತೇ ಅಪ್ಸು ಮೇ ಸೋಮೋ ಅಬ್ರವೀದಂತರ್ವಿಶ್ವಾಣಿ ವೇಷಜ ಅಗ್ನಿಂಚ ವಿಶ್ವಶಂಭುವಮಾಪಶ್ಚ ವಿಶ್ವವೇಷಜೇ ಗೌರೀಮಿ ಮಾಯಸ ಲೀಲಾ ನಿತಕ್ಷತ್ಯೇಕಪದೇ ದ್ವಿಪದೇ ಸಾ ಚತುಷ್ಪದೇ ಅಷ್ಟಾಪದೇ ನವಪದೇ ಬಭೂವುಷೇ ಸಹಸ್ರಾಕ್ಷರಾ ಪರಮೇ ವ್ಯೋಮನ್ ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಸೋಮಾಯ ನಮಃ ಓಂ ಅಗ್ನಿರ್ಮೂರ್ಧಾ ದಿವಕ್ಕಗುತ್ಪತಿ ಪೃಥಿವ್ಯಾ ಅಯಂ ಅಪಾಗುಂ ರೇದಾಗುಂ ಸಿಜಿನ್ಮದೇ ಶ್ಯೋನಾ ಪೃಥಿವಿ ಭವಾ ನಿಕ್ಷರಾ ನಿವೇಶನೇ ಯಚ್ಛಾನ ಶರ್ಮ ಸಪ್ರಧಾಃ ಕ್ಷೇತ್ರಸ್ಯ ಪದಿನಾ ವಯಗುಂ ಹಿತೇನೇವ ಜಯಾಮಸಿ ಗಾಮಶ್ವಂ ಪೋಷಯಿತೃವಾಸನೋ ಮೃಡಾತೀದೃಶೇ ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಅಂಗಾರಕಾಯ ನಮಃ ಓಂ ಉದ್ಭುಜಸ್ವಾಗ್ನೇ ಪ್ರತಿಜಾಗೃತ್ಯೇನಮಿಷ್ಟಾ ಪೂರ್ತೇ ಸಗುಂ ಸೃಜೇತಾ ಮಯಂ ಚ ಪುನಃ ಕೃಣ್ವಗ್ಸ್ವಾ ಪಿತರಂ ಯುವಾನಮನ್ವಾದಾಗುಂ ಚೇತ್ವೈತಂ ತುಮೇತಂ ಇದಂ ವಿಷ್ಣುರ್ವಿಚಕ್ರಮೇ ತ್ರೇಧಾನಿ ತದೇ ಪದಂ ಸಮೂಢಮಸ್ಯ ಪಾಗುಂ ಸುರೇ ವಿಷ್ಣೋರಾಟಮಸಿ ವಿಷ್ಣೋ ಪೃಷ್ಠಮಸಿ ವಿಷ್ಣೋ ಸ್ನಪ್ತ್ರೇ ಸ್ತೋ ವಿಷ್ಣೋ ಸ್ಯೋರಸಿ ವಿಷ್ಣೋ ಧ್ರುವಮಸಿ ವೈಷ್ಣವಮಸಿ ವಿಷ್ಣವೇ ತ್ವಾ ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಬುಧಾಯ ನಮಃ ಓಂ ಬೃಹಸ್ಪತೇ ಅತಿಯದರ್ಯೋ ಅರ್ಹಾದ್ಯುಮದ್ವಿಪಾದಿಕ್ರತುಮಜ್ಜನೇಶು ಯದ್ದೇತ ಯಚ್ಚ ವಸತ್ತ ಪ್ರಜಾತ ತದಸ್ಮಾಸು ದ್ರವಿಣಂ ದೇಹಿ ಚಿತ್ರಂ ಇಂದ್ರಮರುತ್ವೈಹ ಪಾಹಿ ಸೋಮಂ ಯಥಾಚಾರ್ಯಾತೇ ಅಪಿವಸ್ಸುತಸ್ಯ ತವ ಪ್ರಣೀತೇ ತವ ಶೂರಶರ್ಮನ್ನಾವಿವಾಸಂತಿ ಕವಯಸ್ಸು ಯಜ್ಞಾಃ ಬ್ರಹ್ಮಜ್ಞಾನಂ ಪ್ರಥಮಂ ಪುರಸ್ತಾದ್ವಿಷೇ ಮತಃ ಸುರುಚೋ ವೇನ ಆವಹ ಸ ಪುತ್ರಿಯಾ ಉಪಮಾ ಅಸ್ಯ ವಿಷ್ಟಾತ್ ಸತಶ್ಚ ಯೋ ನಿಮಸತಶ್ಚ ವಿವಹ ಓಂ ಅಧಿದೇವತಾ ಪ್ರತ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಬೃಹಸ್ಪತಯೇ ನಮಃ ಓಂ ಪ್ರಭ ಶುಕ್ರಾಯ ಭಾನವೇ ಭರದ್ವಗುಂ ಹವ್ಯಂ ಮತಿಂ ಚಾಗ್ನಯೇ ಸುಪೂತಂ यो देव्यानि मानुषा जनो गुष्यन्तर्विश्वानि वित्मनादिकादि इन्द्राणि मासुनारिषु सुपत्नि महमश्रवम् नक्यस्य अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परिहवामगे जनेभ्यः अस्माकमस्तु केवलः ॐ अभिदेवता प्रत्यभिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवेरभिष्टय आपो भवन्तु पीतये चय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहोमस्तरन्नो अस्तु वयग्रस्यामपदयोरयेनाम् इमम् यमप्रस्थरमाहि सेताङ्गिरोऽपि पितृभिः संविधानः त्वामन्त्रा कविशस्तावहम् त्वेनाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्र आभुवदूते सदा वृथस्सखा कयाशचिष्ठया वृता आयङ्गो वृष्णिरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निरहृतिरा भवन्ददामग्रीवास्वविचर्त्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तथा जीव पितुमध्ये प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे शमुषद्भिरजायता ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृद्रा नागस्वतिर्वणा नागुम् सोम पवित्रमत्येतिरेभन्न सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवेदम् बृहन्तम् चन्द्रचन्द्राविर्घृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेर्वचक्षुरातरम् तद्विप्रादो विपन्यभोजागृहागुम् सत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहे तन्नो विष्णुप्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि తన్నో రుద్ర ప్రచోదయాత్. ఓం సాయీశ్వరాయ విద్మహే సత్యదేవాయ ధీమహే తన్న సర్వ ప్రచోదయాత్. హంస హంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహీమహీషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు. సమస్త లోకాః సుఖినో భవంతు. సమస్త లోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.